श्री अच्युताष्टकम् अच्युतम् केशवम् रामनारायणम् कृष्णदामोदरम् वासुदेवम् हरिम् श्रीधरम् माधवम् गोपिकावल्लभम् जानकीनायकम् रामचन्द्रं भजे अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनम् नन्दजं सन्दधे विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणीरागिणे जानकी जानये वल्लवी वल्लभा यार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः कृष्णगोविन्दहे रामनारायण श्रीपते वासुदेवाजित श्रीनिधे अच्युतानन्तहे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक राक्षसक्षोभित सीतया शोभितो दण्डकारण्यभू पुण्यताकारणः लक्ष्मणेनान्वितो वानरैः सेवितो अगस्त्यसम्पूजितो राघव पातु माम् धेनुकारिष्टका निष्टकृद्वेषिणा केशिहा कंसरुद् वंशिका वादकः पूतना कोपकर सूरजा खेलनो बालगोपालक पातु मां सर्वदा विद्युदुद्योतवान् प्रस्फुरद वाससं प्रावृढं बोधवत् प्रोल्लसद्विग्रहम् वन्यया मालया शोभितोरस्थलम् लोहिताङ्घ्रिद्वयम् वारिजाक्षं भजे कुञ्चितैः कुन्तलैः भ्राजमानाननम् रत्नमौलिं लसत् कुण्डलं गण्डयोः हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे अच्युतस्याष्टकं यः पठेदिष्टदम् प्रेमत प्रत्यहम् ऊरशः सस्पृहम् वृत्ततः सुन्दरम् कर्तृविश्वम्बरम् तस्य वश्यो हरिर्जायते सत्वरम् इति श्रीमच्छङ्कराचार्यविरचितम् अच्युतस्याष्टकं सम्पूर्णम्।